शरज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राण स्फटिकघुटिका पुस्तककरां सकृन्नत्वा नत्वा कथमिव सतां सन्निदधते मधुक्षीरद्राक्ष मधुरि मधुरिणः पणितयः कवीन्द्राणां चेतकमलवनबालातपरुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीं विरुचि प्रायस्याः तरुणतर शृङ्गारलहरी गभीराभिर्वाग्भिः विदधति सतां रञ्जनममी सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभिस्त्वां सहजननी संचिन्तयति यः सकर्ता काव्यानां भवति महता भङ्गिरुचिभिः वचोभिः वाग्देवी वदनकमलामोद मधुरैः तनुश्चायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामुर्वीम् अरुणिमणिमग्नां स्मरति यः भवन्त्यस्य अत्रस्य ध्वनहरिणशालीन नयनः सहोर्वश्यवश्यः कति कति न गीर्वाण गणिकः मुखं बिन्दुं कृत्वा कुचयुगम् अधस्तस्य तदधः हरार्धं ध्यायेत्यो हरमहिषिते मन्मथकलां ससद्यः संक्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमभ्याशु भ्रमयति रवीन्दुस्तनयुगाम् किरन्तीम् अङ्गेभ्यः किरणनिकुरुम्ब अमृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ससर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टा दृष्ट्या सुखयति सुधाधर शिरया तटिलेका तन्वीं तापनशशिवैश्वानरमयीं निषण्णां षण्णामपि उपरि कमलानां तव कलां महापद्माटव्यां मृदि तमलमायेन मनसा महान्तः पश्यन्तः ददति परमाह्लादलहरीं भवानि त्वं दासे मयि वितरदृष्टिं सकरूणाम् इति स्तोतं वाञ्छन् कथयति भवानि त्वम् इति यः तदेव त्वं तस्मै दिशसि निजसायुज्य पदवीं मुकुन्द ब्रह्मेन्द्र स्फुटमकुटनिराजितपदं त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्धं शम्भोः अपरमपि शङ्के हृतमभूत् यदेतत्त्वद्रूपं सकलम् अरुणाभं त्रिनयनं कुचाभ्यामानं ब्रं कुटिलशशिचूडालमकुटं जगत्सूते दाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्येतत् स्वमपिव पुरीशस्तिरयति सदा पूर्वसर्वं तदिदमनुगृह्णाति च शिवः तवाज्ञमालम्ब्य क्षणचलितयोः भ्रूलतिकयोः त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता तथा हि त्वत्पादोद्वहन मणिपीठस्य निकटे स्थिता ह्येकेशश्व मुकुलितकरोत्तं स मकुटः।